शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्परां श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पाद शङ्करं लोकशङ्करम् अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणं श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम्। सर्वेषां भाषितसंस्कृतकक्षायाः शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्परां श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पाद शङ्करं लोकशङ्करम् अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणं श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम्। Share the screen. Are you able to see my screen?
Om Mahode.
Astu. इदानीं कुत्र भवति? अद्यतनविषये वयं किं पठामः इत्युक्ते, यदि एकवस्तुः वयं द्रष्टुं शक्यते तद् अस्ति इति वदामः, यदा इदानीं न द्रष्टुं शक्यते तद् नास्ति इति वदामः। देट् इस् यु केन् सी दि आब्जेक्ट् वेदर् इट् इस् देर् आर् नाट् देर्। ओके, नौ सम् आब्जेक्ट्स् आर् देर्। ओके, what I will do is I will you can see some 12 objects are there. So if the object is there, you have to say it is asti. Karadeepah, if I say, then you will say karadeepah asti. Then if I say lekani, lekani is a pen, you have to say lekani nasti. Okay, अवगतं वा?
अस्तु महोदय।
अस्तु महोदय।
स्यूतः,
स्यूतः अस्ति।
वाट् इस् स्यूतः?
बेग्, बेग्,
बेग्, अस्तु। सूतः अस्ति। पत्रम्?
नास्ति, नास्ति, पत्रं नास्ति।
फलम्?
नास्ति,
फलं नास्ति,
नास्ति।
मन्दिरं?
मन्दिरं नास्ति,
मन्दिरं नास्ति, नास्ति,
नास्ति। दण्डदीपः?
दण्डदीपः,
दण्डदीपः अस्ति,
दण्डदीपः अस्ति
अस्ति
आसन्दः
आसन्दः
नास्ति
अस्ति पूर्णवाक्यं वदतु आसन्दः
आसन्दः अस्ति
घटी घटः
घटः
नास्ति
कार्यानम्
कार्यानम्
अस्ति
व्यजनम्
व्यजनम्
व्यजनम् अस्ति
मापिका
मापिका
अस्ति नास्ति
कङ्कतम्
कङ्कतम् अस्ति
बालकः
बालकः
नास्ति
बालिका
बालिका
बालिका बालिका नास्ति
जवनिका
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 जवनिका नास्ति
दर्वी
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 अस्ति
चषकः
चषकः
नास्ति
चषकः नास्ति
चमसः
चमसः
नास्ति
चमसः नास्ति छत्रं
छत्रं
छत्रम् अस्ति
अग्निपेटिका
अग्निपेटिका
अग्निपेटिका अस्ति 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 अग्निपेटिका अस्ति
दूरवाणी
दूरवाणी
दूरवाणी नास्ति
नास्ति
दूरवाणी नास्ति
महिला
महिला
महिला नास्ति
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 महिला नास्ति
कुञ्चिका
कुञ्चिका
कुञ्चिका अस्ति
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 द्रोणी
द्रोणी
द्रोणी नास्ति
शाटिका
शाटिका
शाटिका अस्ति
क्रीडनकं
क्रीडनकं नास्ति
नास्ति क्रीडनकं मिस् टाय् सिंहासनं
सिंहासनं
सिंहासनं नास्ति
उत्पीठिका
उत्पीठिका
उत्पीठिका नास्ति
नास्ति तालः
तालः
तालः तालः
तालः अस्ति
अस्ति
दीपः
दीपः
नास्ति दीपः नास्ति
गोलदीपः
गोलदीपः
नास्ति गोलदीपः अस्ति
गोलदीपः अस्ति वा
दण्डदीपकः अस्ति
दण्डदीपः अस्ति
दण्डदीपकः अस्ति
मण्डपदीपः अपि अस्ति
मण्डपः मण्डपः अस्ति वा सङ्गणकम् अस्ति वा
सङ्गणकं
कम्प्यूटर्
पिञ्जः
पिञ्जः
पिञ्जः नास्ति
पिञ्जः इत्युक्ते
स्विच् स्विच्
पिञ्जः अस्ति वा?
अस्ति
पिञ्जः अस्ति.
दर्पणः अस्ति वा?
दर्पणः
अस्ति.
आपणः अस्ति वा?
आपणः
नास्ति. नास्ति.
गृहमस्ति वा?
गृहं
नास्ति.
इस् दिस् क्लियर्? अस्ति नास्ति?
अस्तु महोदय.
समीचीनं वा? इतोपि करणीयं वा? सम्यक् अवगतवती वा? अस्ति
अवगतम्. सम्यक् अवगतम्.
अहं विस्मृतवती महोदय. अस्ति नास्ति सर्वत्र एकत्र अपि पूर्णं भवति पूर्वमेव.
हा महोदय, इदानीं तदेव पाठयतु इति मां मम कृते उक्तवान्. अस्ति नास्ति इति पाठयतु इति. तस्य एतत् सर्वं समाप्तं वा? इदानीं नास्ति खलु?
ओ महोदय, अत्र सर्वत्र पर्यन्तं समाप्तम्.
अत्र सर्वत्र किमपि नास्ति. पुनस्मारणरूपेणैव एव अद्य वयं किञ्चित् पठित्वा अग्रि वयं गच्छामः. किं किं सर्वत्र अस्ति? देवः कुत्र अस्ति?
देवः
सर्वत्र अस्ति.
नास्ति.
देवः सर्वत्र अस्ति.
प्रकाशः सर्वत्र अस्ति.
आकाशः
सर्वत्र
अस्ति.
गोशाला गोः सर्वत्र अस्ति वा?
न.
गोशाला
गोशाला देर् आर् कौस् ओन्लि.
सर्वत्र नास्ति.
नो, अस्तु. मम यदा मम गृहे अपि मम पुत्री यदा पठति चेत् तत्र पुस्तकं सर्वत्र अस्ति. यत्र कुत्रापि वा दृश्यतु तस्य पुस्तकमेव, तस्याः पुस्तकमेव द्रष्टुं शक्यते. तदपि सर्वत्र इति अहं वयं वक्तुं शक्यते. इदानीं वयं तस्य प्रति वयं गच्छामः अस्मिन् एषः बालः. एषः बालः. एतस्य नाम रामः. एषः बालः. एतस्य नाम रामः. सो वाट् डस् इट् मीन्? एषः बालः अर्थः कः?
दिस् इस् अ बाय्.
दिस् इस्
अ बाय्. देन् ऐ से एतस्य नाम रामः.
His name is Rama.
His name is Rama. Yeshaha Chatraha. Tasya Nama Ganeshaha.
He is a student.
Is a student. His name is Ganesha.
Ganeshaha. Ganesha.
So, So we call this, we'll go to the D. एषः ग्रामः एतस्य नाम यु केन् गिव् अ नेम् आफ् एनी नेम् आफ् एनी विलेज्
दिस् इस् अ विलेज्
दिस् इस् अ विलेज्
या दिस् एषः नाम दिस् इस् अ विलेज् एतस्य नाम
इट्स् नेम् इस्
इट्स् नेम् इस्
Say some name, whatever you like.
Puyuru.
Ah. Okay. Yeshah Adhyapakah. Now you can, you just say one name, that's all. Etasya Nama, that's all.
Etasya Nama.
Etasya Nama. Mohan.
Gopal.
Mohanah. You can't say Mohan. Samskrite. यदा वदति मिमि मोहनः
मोहनः
एषः वैद्यः
इस् अ डाक्टर्
एतस्य नाम
एतस्य नाम
कृष्णः
एषः तरुणः तरुणः मीन्स् यङ्ग् मेन् एषः तरुणः
एतस्य
नाम महेशः
जस्ट् कीप् टेलिङ्ग् द नेम् एनी पर्सन्स् यु नो दट्स् आल् ओके
एतस्य नाम
एषः पुरुषः
एतस्य नाम नाम विवेकः विवेकः
एषः देवः
एतस्य नाम नारायणः
यु केन् से एतस्य नाम नारायणः इन्द्रः गणेशः शिवः एनिथिङ्ग् ओके एषः चालकः ड्रैवर्
ड्रैवर् एतस्य
नाम
एषः एतस्य एषः इस् दिस् एतस्य इस् his name or its name actually when you translate in English it will be its name whether it is his name or his name if it sometimes if it's an object it will become its name okay then even if then also it will be a pullinga word only okay yeshaha vriddhah
This is an old man.
Old man.
Etasya Nama. Etasya Nama. Etasya Nama.
Etasya Nama. Etasya Nama. Etasya Nama.
Etasya Nama. So, Yeshaha Etasya. Yeshaha Etasya. एषः एतस्य इफ् यु से द सेम् थिङ्ग् वित् सः इट् विल् बिकम् तस्य सः तस्य सः बालकः वाट् डस् दट् मीन्
हि इस् अ बाय्
नाट् हि दट् इस् अ बाय्
दट् इस् अ बाय् दट् इस् अ बाय्
दट् इस् अ बाय् तस्य नामः श्रीनिवासः हिस् नेम् इस् श्रीनिवास् इफ् ऐ से एषः बालकः देन् यु हाव् टु से एतस्य नाम हिस् नेम् सः बालकः तस्य नाम अगेन् इट् इस् हिस् नेम्
हिस् नेम्
वेन् यु ट्रान्स्लेट् इट् विल् बि ओन्लि हिस् नेम् वेदर् इट् इस् एषः और् सः बोत् विल् बि when we translate it in English language it is going to only be his name. Okay, now can you try? I have told you a lot of words, no?
Saha vriddhah tasya nama madhuhu.
Okay, adutad agrimam anya vadatu.
Saha chalakah tasya nama ganeshah.
Agrimam.
Saha palakah tasya nama mohanah.
सः वैद्यः तस्य नाम अरुणः
सः अध्यापकः तस्य नाम श्रीनिवासः
एषः एतस्य सः तस्य when it is etat it is also etasya only okay whether it is eshah or etat for both it is etasya his okay etat pustakam एतस्य नाम यु हेव् टु से
भगवद्गीता
रामायणम्
रामायणम् देन् एतत् मन्दिरम्
एतस्य नाम राममन्दिरम्
एतत् पुष्पम्
एतस्य नाम चम्पका
यु केनाट् से चम्पका
चम्पकम्
ऐ एम् टेकिङ्ग् एतत् पुष्पं सो यु हाव् टु से नपुंसकलिङ्गा वर्ड् एतस्य नाम कमलम्
कमलम्
If I say champakah, I have to say eshaka champakah. Okay. But when you say it will all be, it will also be only etasya nama champakah. But the question is eshaka champakah. Eshaka pushpam etasya nama kamalam.
तर्हि चम्पकः पुल्लिङ्गः भवति वा
आं भगिनि संस्कृते यदा प्रत्येकवस्तु लिङ्गवयं ज्ञात्वा एव कार्यं करणीयं यु हव् टु नो द जेण्डर् आफ् ईच् वर्ड् नार्मलि वेन् इट् इस् एण्ड्स् इन् आ दे विल् आल् बि पुल्लिङ्गपद बेसिक् लेवल्स् ओके ओन्लि देन् 90 to 80 then when it ends in a or e dinga is always here strilinga word of course there are exceptions Vagni someone can you please mute I'm hearing some sound can you please mute yourself dhanyawada when it ends in a or e it is always strilingam when it ends in im it will be napumsakalingam for the time being you can think of it this is a very basic stage you are learning so we will be encountering only those type of words okay
astu mahoday
etat griham
एतत् गृहम् एतस्य नाम लक्ष्मीनिवासम्
उत्तमम्
एतत् फलम् एतस्य नाम आम्रफलम्
एतत् फलम्
एतत्
एतस्य नाम
एतस्य नाम नारिकेलम्
सेवफलम्
एतस्य नाम आम्रफलम् एतस्य नाम पनसफलम् पनसफलम् इस् जाक्फ्रूट् देन् सेवफलम् इस्
एपल्
एपल्
ताडीमफलम्
ताडीमफलम् इस् दाडीमफलम् इस् पोमोग्रानेट्
लेमन् गणजी What is for lemon?
Lemon? You're not audible, Bagini.
Lemon. Lemon. What is it lemon. for lemon, Shita?
For lemon. That also you can use narangapalam. But I'll tell what is for lemon.
Nimbapalam asti va?
Nimbakapalam. Nimbakapalam.
निम्बकफलं धन्यवादः
सो वाट् डिड् वी स्टडि टुडे वि सा एषः एतस्य सः तस्य
सः तस्य
देन् वि सा एतत् एतस्य ओके So you can make a note of this and keep, and of course everything is available on the web page. You can do it for your reference. Eshaha, etasya, saha, tasya, etat, etasya. Okay, now we will go to Trilinga Padani. Okay, how do you, if we say Eshaha in Pullinga, what do we say for Strilinga word? एषा एषा सो एषा इट् इस् गोयिङ्ग् टु बिकम् एतस्याः ओके एषा एतस्याः ओके सो नौ लेट् मी से एषा बालिका सो वाट् यु शुड् से एतस्याः नाम
सीता
सीता एषा
एतस्याः
तरुणी
एतस्याः नाम
लता
रमा
एषा महिला
एषा महिला
एतस्याः नाम रुक्मिणी
एषा वैद्या
एतस्याः नाम
एतस्याः नाम
एतस्याः नाम सुन्दरी
एषा अध्यापिका
एतस्याः
वैष्णवी एषा वृद्धा
एतस्याः नाम मीनाक्षी
एषा गायिका
लक्ष्मी
एषा छात्रा
एषा छात्रा एतस्याः नाम गीता
एषा भगिनी
प्रभा
एषा माता
तस्याः नाम
नाम जननी
लक्ष्मीः
एषा नर्तकी
एतस्याः नाम चैताली
एषा राज्ञी
महोदय
एषा राज्ञी राज्ञी
एषा राज्ञी राणी इस् इट्
राज्ञी नी नी
राज्ञी
न्यामी
अस्तु क्वीन्
एतस्याः
पद्मिनी एतस्याः नाम पद्मिनी
वधू वधू मीन्स् ब्रैट्
वधू
वधू
एतस्याः नाम दीपा
एषा अनुजा अनुजा इस् यङ्गर् सिस्टर् एषा अनुजा
एषा अनुजा एतस्याः नाम सुनीता
दीपा
नाम लीला
एषा अग्रजा
एतस्य नाम ऐश्वर्या
सो एषः बिकेम् एषा बिकेम् एतस्याः ओके सो एषः बिकेम् एतस्य एण्ड् सः बिकम्स् तस्य वाट् विल् सा बिकम्
तस्याः
तस्याः सो केन् यू नौ ट्रै ऐ गिवन् यू लाट् आफ़् वर्ड्स् से वन् बै वन् क्रमेण वदतु गो इन् आल्फबेटिकल् आर्डर् क्रमेण वदतु
अश्विन्
क्षम्यता
अश्विन् महोदय भवान् प्रथमं वदतु
Okay. Sorry. I got distracted here. I'm so sorry. Sa
Mahila bhavan atra asti va?
Sa Mahila.
Tasya.
Yes. Sa Mahila. तस्याः नाम इन्दिरा
पुनः वदतु सा
महिला
उत्तमम्
सा अध्यापिका तस्याः नाम माला.
अग्रिमं बाला, देन् इट् शुड् बि मनस्वी.
सा माता. एतस्याः नाम निर्मिता.
सा पुनः वदतु.
सा माता.
If it is सा माता, then what must you say?
तस्याः नाम निर्मिता.
उत्तमम्. अग्रिमं मीनाक्षी भगिनी भवती वदतु.
सा गायिका, तस्याः नाम लीला.
मीना मीना भगिनी भवती भवती वदतु.
सा नर्तकी.
सत्याः नाम पद्मा.
सुधा भगिनी.
सा लेखिका, तस्याः नाम प्रियङ्का.
पद्मजा.
सा नटी, तस्याः नाम सावित्री.
उत्तमम्. सो वी फिनिश्ड् वित् So if it is Eshaha, what must you say?
Etasya.
Etasya. Esha?
Etasya.
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 Etasya. Etasya. Etasya. Esha? Just as I said, for Eshaha, it is Etasya. Etat also, it is Etasya. So, Saha is Tasya. Tat will also be Tasya.
Tasya.
Okay? Saha will also be Tasya. Okay? Okay, now we can say tat pustakam.
Tasya nama ramayana.
Tasya nama
rakalam.
Kadani phalam tasya nama.
Tat pushpam. तस्य नाम
पाटलम्.
पाटल आल्सो पाटल पुष्पं यु शुड् से.
पाटलः यस् पुल्लिङ्ग वा.
पिङ्क् कलर् इस् काल्ड् पाटल.
ओ अस्तु अस्तु. पाटलपुष्पं वदामि वा.
Patala pushpam, if you say something, it's a pink flower. That's all.
So what is rose called?
I think rose is called patala pushpam only. Because it's pink in color.
Ashtu mahode.
Because it's pink in color, you call it as patala pushpam. But rose comes in different colors. Okay, we see rose, all colors in rose. Yes or no? You have red.
Yes.
White.
White.
Yellow.
Pita varnasya.
Mm-hmm.
न श्रूयते भगिनि
जस्ट् सीन् वाट् इस् द नेम् आफ् रोस् इन् संस्कृत
क्षम्यतां महोदये अहं तदा फार् लेमन् निम्बफलम् इति उक्तवती निम्बकफलम् इत्युक्ते नीम् फ्रूट्
फलम्
जम्बीर जम्बीरफलम् इत्युक्ते लेमन् इदानीं ज्ञातवती भगिनि क्षम्यतां
यु केन् से पाटलम् इस् रोस् पाटलपुष्पम्
is gulabam rose
gulab also you can say but normally that is used in hindi I think that also we can use
in book they have given patalam as rose ma'am
yeah patalam is rose से पाटलपुष्पम् और् पाटलम्
अस्तु महोदय
लर्न् संस्कृत् डाट् सि सि मध्ये निम्बु अपि अस्ति लेमन् नाम
नो देर् आर् फार् वन् वर्ड् नो इन् संस्कृत् देर् विल् बि सेवरल् वर्ड्स् विल् मीन् द सेम् थिङ्ग् इन् संस्कृत् अण्ड् सिमिलर्लि वन् वर्ड् विल् मीन् सेवरल् थिङ्ग्स् इन् संस्कृत् बोत् आर् देर् एस्पेशलि वेन् वि study the amarakosha that will become very clear so we'll just see some colors today okay just a revision of colors
Asma.
So what is white shvetah
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 shvetah shvetah is white krishnah is black
Krishna.
Is black. Neelaha. Then raktah is red
raktah
green
raktah is red haritah
is green
haritah is green
patalah
is pink
patalah is pink
patalah
pink kesara varnah is saffron
Orange, saffron.
Dusaraha is brown.
Narangivarnaha iti vadanti kalu magini? Kesaraha is orange, saffron.
Kesaraha is orange. Orange or saffron or any color. Dusaraha is brown.
Dusaraha? द महाप्राण वा अल्पप्राण वा
धूसरः महाप्राणः चतुर्थ दकारः अस्ति
ब्रौन्
नीललोहितः इस् वैलेट्
नीलल्
पर्पल् वैलेट्
नीललोहितः इस् वैलेट् और् पर्पल् Shuka Haritaha is parrot green.
Wow.
Please post in merge, Ji.
Can we see it on screen?
Post in merge.
No, this is not on screen because etat screen madhye na nasti bhagini
punah ekavaram vaktum shiknoti va
ya aham punah ekavaram aham vadami shvetah is white
krishna is black
then
raktaha is red.
Raktaha is red. Haritaha is
green.
Neelaha is blue.
Neelaha is blue. Peetaha is
yellow.
Patalaha is pink. Then Kapishaha is brown.
Dusaraha.
No, Kapishaha is brown. I mean, it's I said it wrong.
Dusaraha is gray.
Dusaraha is gray and Kapishaha is brown.
Neela Lohitaha api vadati.
Neela Lohitaha is
purple, violet.
Or violet.
Bhagini, Shukla Ambaradharam ityukte.
Orange.
Shukla.
Shukla is also white.
Oh.
White. Shvetaha, Shuklaha.
Shukha Haritaha, parrot green.
Shukha Haritaha is
parrot green.
Orange.
Orange is
Kesaraha.
Orange is Kesaraha.
Pashayaha, that is also orange, Mahodaya.
We say Kashaya Vastaram. It's normally orange in color, but I have to know whether we can use that as orange in color for orange.
Okay.
Because we see the because I'm not sure about it, so I'll just let you know whether you can use that. Okay. Now let us see some. Shall we learn about the parts of our body? I'm sure all of you will know. Okay. So first is netram. What is netram?
Eye.
Bruhu is
eyebrow.
Jihwa is your
tongue.
Karnaha.
Ear.
Kapolaha.
Forehead.
Cheek.
Oshtaha.
Lips.
Lalatam.
Lalatam is forehead.
Dantaha is teeth.
Tooth.
Dantaha is
tooth.
Teeth. Kantaha is neck. Chibukam is chin. Uraha is chest.
Uraha.
Chest.
Vakshasthalam api vaktum shaknumaha.
Vakshasthalam api chest.
Oh.
Nabihi is navel.
It's same as Hindi.
Nabihi is the navel. Udaram, stomach. Katihi, waist.
Katihi.
Nakaha is nail.
Mahaprana. Nakaha.
Yeah, second one is Mahaprana. Nakaha. हस्तः इस् हेण्ड् पादः फुट् ऊरुः इस् योर् थै
ऊरुः इस् उरः इस् चेस्ट् अण्ड् ऊरुः इस् थै
ऊरुः इस् थै उरः इस् चेस्ट्
चाङ्गः इस् फार् द
जानु इस् नी
जानु
भुजः बाहुः
महोदय जाङ्गः आल्सो फार् थैस् राइट
ऊरु इस् थै
देन् जाङ्गः
जाङ्गा इस् काफ् मसल् दट् काफ् पोर्शन् इस् काल्ड् जङ्गा
ओ काफ् काफ् या या
काफ् इस् जङ्गा देन् यु हेव् स्कन्दः वाट् इस् स्कन्दः
शोल्डर्
शोल्डर्
बाहु
आर्म्स्
Bahu is arms. So whenever you we refer to Rama, we call him as Dirga Bahuhu.
Ajanu Bahuhu.
Ajanu Bahuhu.
Bhujaha.
You say Ajanu Bahuhu means your hand is up to your knee. So such long hands you have.
Mahodaye. स्कन्धः भुजः समानं भवति वा
भुजः पुनः एकवारं वदामि वा
भुजः
नेत्रं
नेत्रम्
ऐत्रम्
जिह्वा
टङ्
जिह्वा टङ्
कर्णः
इयर्स्
जिह्वा
कपोलः ब्रूः
ऐब्रो
ऐब्रोस्
ललाटं
फोर्हेड्
फोर्हेड्
पादः उदरं हू इस् काल्ड् देर् इस् सम् गाड् वेर् यु हर्ड् द वर्ड् उदरं
लम्बोदरः
लम्बोदरं सम् बिग् स्टमक् दट् इस् वै इस् काल्ड् लम्बोदरं
लम्बोदरः गणेशः
देन् दन्तः
दन्तः टीत्
टीत्
उरः
चेस्ट्
नाभिः
नेवल् नेवल्
नेवल्
नेवल्
देन् चिबुकं
चिन्
chin bahu
arm
arm
shoulder
bahu is arm
arms
kati hi arm
kati hi
waist
hanu ichchite kim bagini hanu
Hanu is chin, right? Hanuman.
Org.
The dimple.
Hanu is chin.
Broken jaw of Hanuman. That's why he is called jaw. Hanuman. Right?
It's Hanu.
learn Sanskrit says Hanu is chin, jaw, jaw. What is for nose? Nasika.
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 Nasika. So now, okay. Now, just as we said, it is Yeshaka. Yeshaka is this. And his becomes Etasya. When I say I use Aham. I is Aham. When I want to say it is mine, I use mama. I think that would have been your, the first lesson which we studied. Mama nama, bhavataha nama, bhavatyaha nama. When I say aham, and when I want to say it belongs to me, it is, I have to say mama. Okay, so you can say mama nama, mama pustakam, mama griham, mama shatika,
mama hastam,
mama hastaha,
hastaha, okay, hastaha.
Mama hastaha, mama
lekhani,
mama lekhani,
mama putkani,
mama putraha, mama putri, mama anujaha, mama agrajaha, mama griham. Mama, if it is your mobile, you can say Mama Jangama Duravani. So when you say Aham and you want to say it belongs to me, you say it is Mama. You can say Mama Peti, Mama Shatika, Mama Mala, Mama, it's my flower, Mama Pushpam, Mama Griham. Can each one of you say five words like that? Mama.
Mama Kupi. Mama Bhavanam. Mama Pathachala. Mama Pita. Mama Dekaha.
Uttama.
Mama Anthani. Mama Duravani. Mama Pustakam. Mama Yutakam. Mama Sanganakam.
Uttamam. Agrivam.
Mama Putra, Putri, Mama Mata, Mama Pita, Mama Lekhani, Mama Yutakam.
What do you call, if you want to say my country, what will you say?
Rashtra,
Mama Rajya, Mama Desha,
Mama
Rajya.
Mama Desha or Mama Rashtra?
Mama Rashtra.
Asmakam Rashtra.
Mama Desha, correct, Ji?
Yes, my country, Mama Desha. But when you are saying with many people, you can say Asmakam. Okay. When it is, when a lot of people are there, you can say it is
Asmakam.
You can say Asmakam.
Is that our?
So when you are talking to a foreigner who is not saying, we'll say Mama Deshaha. Mama Deshaha Bharatam. So you can make sentence like that. Mama Agrajaha. You can give her name.
Mama Agrajaha Maheshaha. Mama Agraja Swati.
Okay. Now, let us include Yeshaha also. Your brother or sister is very close to you. So what will you say? Yeshaha. This is my sister. How do you say? Yeshaha Mama
Anuja.
Anuja.
Yesha Mama Anuja. भगिनी
एषः मम अनुजा चेतस्य नाम गाट् इट् नौ एषः मम ऐम् सोरि एषा मम अनुजा एतस्याः नाम
पद्मजा
एषा मम पुत्री एतस्याः नाम दिस् इस् मै डाटर् केन् यु नौ फार्म् सेण्टेन्सस् वित् दिस् हव् यु अण्डर्स्टुड् आल् आफ् यु ऐ गिव् यु सम्
अस्तु महोदय
सम्यक् अवगतं वा
अस्तु अवगतं
एकं वाक्यं वदतु एष एषः और् एषा और् एतत् एनिथिङ्ग् आल् एनिथिङ्ग् यु केन् यूस्
एषः मम पिता
एषा मम पुत्री एतस्याः नाम
एषः मम सखा एतस्य नाम रामः एषा मम सखी एतस्याः नाम रमा
सा मम अग्रजा एतस्याः तस्याः नाम लीला
पुनः वदतु
माता
पुनः वदतु एषः
मम
वेट् वेट् वेट्
अग्रजा
बिफोर् प्लीस् स्पीक् अगेन् ऐ जस्ट् वाण्ट् टु मेक् अ करेक्षन् ऐ वाण्ट् टु नो वेदर् वाट् यु टोल्ड् इस् रैट् स्पीक् अगेन्
तस्याः मम अग्रजा
नो इट् इस् नाट् तस्याः when you want to say this is my sister you have to say esha esha is this my is mama agraja is elder sister
astu
avagatam va esha mama
esha agraja agraja
mama esha mama
etasyah nama leela
एतस्याः नाम जानकी
अस्तु महोदय
अवगतं वा पद्मजा पद्मजा भगिनी भवती वदतु
एषः मम पिता एतस्य नाम सूर्यः एषा मम अनुजा एतस्याः नाम स्वाती
एषा मम भगिनी एतस्याः नाम सावित्री
सः मम पुत्रः तस्य नाम वैद्यनाथन्
वैद्यनाथः
वैद्यनाथः
बिकास् इन् वि नार्मला इन् इन् तमिळ् वि विल् से वैद्यनाथन् श्रीनिवासन् so but in sanskritam it is vaidyanathah
vaidyanathah
srinivasah okay vaidyanathah
okay
मम भगिनी एतस्याः नाम रमा
उत्तमं
महोदय सा एतस्याः
ऐ मेड् ए मिस्टेक् तस्याः नाम रमा
पुनः वदतु महोदय
सा मम भगिनी तस्याः नाम रमा
मीनाक्षी भगिनी भवती वदतु
माता एषः मम पिता तस्य एतस्य नाम
भगिनी किञ्चित् उच्चैः वदतु भवत्याः ध्वनिः सम्यक् न श्रूयते
अज्जि एषः मम पिता एतस्य नाम रामनाथ
उत्तमम् प्रतिभा भगिनी भवती उक्तवती वा
सः अनुजः सः मम अनुजः तस्य नाम रामः सा मम सखी तस्याः नाम ज्योति
उत्तमं विद्या भगिनी
सा मम अनुजा तस्याः नाम लक्ष्मी सः मम अनुजः तस्य नाम विजयः
यू केन् यूस् अदर् वर्ड्स् आल्सो शी इस् मै स्टूडेण्ट् शी इस् मै टीचर्
एषः मम शिक्षकः एतस्य नाम रामः
यू केन् से एषः मम चालकः मै ड्रैवर् my worker karmakarah
sevika
sevika sevakah
vaidyah
vaidya this is my doctor his name okay
astu bhagini astu mahode
so you can try with all words that you know with all combination but always think about you have to put it in the gender wise it has to be correct okay
esha mama janani etasyaha naam ramani
so like let me give you a few more words so that you can try this for your homework okay
as
krishakah is a farmer karmakarah means is a worker
the male servant male worker
vyadah is hunter okay I'll give you more relations itself so that you can take all these relations you can use your family member name itself pita or janakah is father okay putrah is son अग्रजः एल्डर् ब्रदर् अनुजः इस् यङ्गर् ब्रदर् मातुलः इस् अङ्कल् मामा पतिः इस् पतिः इस् हस्बेण्ड् मातामहः is maternal grandfather father mata mahaha is maternal grandfather pita mahaha is paternal grandfather ja mata is son in law then I'll tell you then this is pautraha is
grandson
okay
now
janani is mother Amba is also mother. Just as you have Pita Mahaha is grandfather, the corresponding grandmother should be Pita Mahi. Mata Maha, Mata Mahi.
Mahi.
Putri. Sahodaraha, Sahodari. Agrajaha, Agraja. Anujaha, Anuja. Matulaha is uncle. Matulani is your aunt. Patihi is husband. Bharya is wife.
Patni api samyakva.
Patni api samichinam. Jamata is son-in-law. Snusha is daughter-in-law. Snusha. Snusha. Snusha is daughter-in-law.
Snusha.
Madam, patni varada, wife ke.
Patni also will come.
Okay.
Patni is wife. Bharya is also wife. So you can try this. Okay. So we will complete the class with the song. Okay. I'm sure you might be knowing the song.
What do you call for father-in-law?
You want for father-in-law?
Om Mahadev.
Pitruvyaha. No.
Pitruvyaha is father's elder brother.
Yeah,
right?
It is uncle.
Pitruvyaha is just
paternal uncle.
Your father. Father-in-law is Swashruha is father-in-law. Swashru is mother-in-law. Swashuraha is father-in-law. Swashru is mother-in-law.
Swashruha. And Suraha is there or Shuraha? Shwash.
Shakara.
Shakara. Shakara.
Can you see my screen?
Oh, Mahode.
Huh?
Oh, Mahode.
Be small.
Pathami Sanskritam Nityam.
Yeah. I don't know how to make this size of this book. Let me see whether I can make it big.
Dhuravanyam Zoom Kartum Shekyate. Participants.
Because here I cannot make it big because it is in my email. I cannot increase the. I selected and saw whether I can increase the font size, but you can just repeat it. Patami Sanskritam Nityam.
Patami
Sanskritam Nityam.
One person repeat, others. Just in mute you can repeat. Just one person repeat, otherwise the audio will be one person just repeat, others remain in mute. Patami Sanskritam Nityam.
Patami Sanskritam Nityam.
Vadami Sanskritam Sada.
Vadami Sanskritam Sada.
ध्यायामि संस्कृतं सम्यक्
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्
संस्कृतस्य प्रसाराय
संस्कृतस्य प्रसाराय
नैजं सर्वं ददाम्यहम्
नैजं सर्वं ददाम्यहम्
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तो
संस्कृतस्य सदा वक्तो
इट् इस् नाट् वक्तो भक्तो भक्तो
संस्कृतस्य सदा भक्तो
रिपीट्
संस्कृतस्य सदा भक्तो
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्
संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते यजन्
संस्कृतस्य कृते यजन्
आत्मानमाहुतं मन्ये
आत्मानमाहुतं मन्ये
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्
संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्
इन्दुधर्मसमाजं च
इन्दुधर्मसमाजं च
पवित्रां संस्कृतिं तथा
पवित्रां संस्कृतं तथा
संस्कृति तथा
पवित्रां संस्कृतिं तथा
इन्दुधर्मसमाजं च
इन्दुधर्मसमाजं च
पवित्रां संस्कृतिं तथा
पवित्रां संस्कृतिं तथा
संरक्ष्यननु कार्यम्
संरक्ष्यननु कार्यम्
विश्वं शान्तिं जगदिदम्
विश्वं शान्तिं जगदिदम्
संरक्ष्यननु कार्यम्
संरक्ष्य ननु कार्यम्
विश्वं शान्तिं जगत्तितम्
विश्वं शान्तिं जगत्तितम्
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
वन्दे संस्कृतमातरम्
वन्दे भारतमातरम्
वन्दे भारतमातरम्
Now the words are clearly, you know, you can see it clearly.
Yes, yes.
Can someone sing this fully?
Atam samskritam nityam vadami samskritam sada dhyayami samskritam samyak vande samskritamataram संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कार्यं विश्वं शान्तिं जगत्स्थितं वन्दे संस्कृतमातरम् वन्दे संस्कृतमातरम् वन्दे भारतमातरम्
अवर्गं समापयाम सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः सर्वेषां शुभरात्रिः शुभदिनं शुभसायं डिपेण्डिङ्ग् आन् वेर् यत्र कुत्रापि भवती वसति चेत् तद् समयः तादृशं भवतु